अथ श्रीमद्भाष्टकम् अज्ञाननाशाय सतां जनानां कृतावताराय वसुन्धरायां मध्वाभिधानाय महामहिम्ने हतारिसंघाय नमो निलाय येन स्वसिद्धान्त सरोजमद्धा विकासितं गोभिरलं विशुद्धैः दुस्तर्कनीहारकुलं च भिन्नं तस्मै नमो मध्वदिवाकराय प्रपन्नतापप्रशमैकहेतुं दुर्वादिवादीन्धनधूमकेतुं निरन्तरं निर्जितमीनकेतुं नमाम्यहं मध्वमुनिप्रकाण्डम् शान्तं महान्तं नतपातकान्तं कान्तं नितान्तं कलितागमान्तं स्वान्तं नयन्तं त्रिपुरारिकान्तं कान्तं श्रियो मध्वगुरुं नमामि पुन्नामनाम्ने मुरवैरिधाम्ने सम्पूर्णनाम्ने समधीतनाम्ने संकीर्तिताधोक्षजपुण्यनाम्ने नमोस्तु मध्वाय विमुक्तिनाम्ने सन्मानसंसज्जनताशरण्यं सन्मानसन्तोषितरामचन्द्रं सन्मानसव्यक्तपदं प्रशान्तं नमाम्यहं मध्वमुनिप्रकाशम् संस्तूयमानाय सतां समूहैश्चन्द्रायमानाय चिदम्बुराशेः दीपायमानाय हरिन्दिदृक्षोरलं नमो मध्वमुनीश्वराय गुणैकसिन्धुं गुरुपुङ्गवं तं सदैकबन्धुं सकलाकलापम् मनोजबन्धो श्रितपादपद्मं नमाम्यहं मध्वमुनिं वरेण्यम् मध्वाष्टकं पुण्यमिदं त्रिसन्ध्यं पठन्त्यलं भक्तियुता जनाये तेषामभीष्टं वितनोति वायुः श्रीमध्वनामा गुरुपुङ्गवोऽयम् परमपुरुषश्रीचरणसरोरुहमधुकररूपकमानसमुदितं गुरुकुलतिलकश्रीमदानन्दतीर्थयोगिवरं सततं वन्दे श्रीमल्लिकुचवंश्येन मध्वाष्टकमुदीरितं श्रीमत्त्रिविक्रमाख्येन गुर्वनुग्रहकारकम् इति कविकुलतिलकश्रीमत्त्रिविक्रमपण्डिताचार्यविरचितं श्रीमद्भाष्टकम्।